इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य ग्रीस देशस्य प्रधानमन्त्रिणा किरियाकोस मित्सोताकिस इत्यनेन सह दूरभाष माध्यमेन चर्चा कृता। उभौ भारत ग्रीस सामरिक सहभागित्वम् अपि च क्षेत्रीय जनानां समृद्ध्यै च स्वप्रतिबद्धतां पुनः दृढीकृतवन्तौ। भारतेन सीमापार आतंकवादं निवारणाय आह्वानं नेपालदेशे सुशीला कार्की इत्यस्याः नेतृत्वे नूतनस्य अन्तरिम शासनस्य निर्माणस्य स्वागतं च कृतम्। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अद्य उक्तवान् यत् ट्रैक्टर वाहनानां कृषि उपकरणानां च जीएसटी मूल्यस्य ह्रासः प्रत्यक्षतया कृषकाणां कृते लाभप्रदः भवेत्। प्रसिद्धः असम राज्यस्य गायकः सांस्कृतिक प्रतीकः च जुबीन गर्ग इत्येषः सिंगापुर नगरे स्कूबा डाइविंग दुर्घटनायाः अनन्तरं मृतः। अपि च एशिया कप क्रिकेट प्रतिस्पर्धायाम् अद्य सायं आबुधाबी नगरस्य जायेद क्रिकेट क्रीडांगणे भारतीय दलं स्वस्य अन्तिमायां ग्रुप ए इत्यस्यां स्पर्धायां ओमान देशेन सह स्पर्धिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य ग्रीस देशस्य प्रधानमन्त्रिणा किरियाकोस मित्सोताकिस इत्यनेन सह दूरभाष माध्यमेन चर्चा कृता। वार्तालापावधौ उभौ नेतारौ भारत ग्रीस सामरिक सहभागित्वम् अपि च क्षेत्रीय जनानां समृद्ध्यै च स्वप्रतिबद्धतां पुनः दृढीकृतवन्तौ। व्यापार निवेश प्रौद्योगिकी नौवहन रक्षा सुरक्षा संपर्क जनसंपर्क इत्यादिषु क्षेत्रेषु द्वैपाक्षिक संबंधेषु विकासस्य स्वागतं कृतवन्तौ। उभौ नेतारौ परस्पर हितानां क्षेत्रीय वैश्विक विषयाणां विषये अपि विचाराणां आदान प्रदानं कृतवन्तौ। एतदतिरिच्य प्रधानमन्त्री मित्सोताकिस वर्यः 26,000 वर्षे भारते आयोजिते एआई इम्पैक्ट शिखर सम्मेलनस्य सफलतायै च समर्थनं प्रदत्तवान्। प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोक्तं यत् मिशन सक्षम आंगनवाड़ी एवं पोषण 2.0 इत्येते योजने बालकानां कन्यानां गर्भवती महिलानां च पोषणं संवर्धनाय सर्वकारस्य प्रमुखाभियाने स्तः। केन्द्रीय मन्त्रिणः अन्नपूर्णा देव्याः लेखं विनिमयीकुर्वन् श्रीमोदी अवदत् यत् एताभिः योजनाभिः देशे आंगनवाड़ी केन्द्राणां व्यापक संजालेन लक्षाधिकाः लाभार्थिनः लाभान्विताः जाताः। आतंकवादस्य सर्वप्रकाराणाम् अभिव्यक्तयः निवारणाय प्रयासान् सुदृढं तीव्रतरञ्च कर्तुं भारतं विश्वं समाह्वयत्। भारतेन उक्तं यत् आतंकवादिनां पाकिस्तानस्य सैन्यस्य च मध्ये सम्बन्धस्य विषये सर्वे जानन्ति। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् पाकिस्तानस्य आतंकी संघटनानां नवीनतम वीडियो प्रसंगे प्रश्न उत्तरे विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् एतादृशाः घटनाः इतोप्यधिकं भयं जनयन्ति। सहैव श्रीजायसवालः प्रोक्तवान् यत् भारतं नेपालदेशे सुशीला कार्की इत्यस्याः नेतृत्वे नूतनस्य अन्तरिम शासनस्य निर्माणस्य स्वागतं करोति। केन्द्रीय सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना तन्त्रज्ञानं भारतस्य बृहत्तमं समानरूपेण परिवर्तितम्। सः अवदत् यत् अधुना सामान्य विक्रेतारः कॉर्पोरेट कार्यकारिणः इव एव यूपीआई देय व्यवस्थाम् उपयुञ्जते। राष्ट्रीय दैनिक पत्रस्य एकस्मिन् लेखे श्री वैष्णवः अधोरेखितवान् यत् तन्त्रज्ञानस्य कोऽपि पदानुक्रमः न भवति। सः अवदत् यत् एतत् परिवर्तनं प्रधानमन्त्रिणः मोदिनः अन्त्योदयस्य मूलदर्शनं प्रतिबिम्बयति। अन्तरिक्षस्य नवान्वेषणस्य च क्षेत्रस्य उल्लेखं कुर्वन् श्रीवैष्णवः अवदत् यत् भारतेन यत् असाध्यं प्रतीयते तदपि साधितम्। संसदीय कार्यमन्त्री किरेन रिजिजू अवदत् यत् 47,000 विकसित भारतस्य संकल्पं साधयितुं महिलानां यूनां च सक्रिय सहभागित्वम् आवश्यकम्। नवदिल्ल्याः फ्यूचर फ्रंटियर कॉन्क्लेव इत्यत्र जनसमूहं संबोधयन् श्री रिजिजुः अवदत् यत् प्रशासनस्य कार्यसूच्याः केन्द्रितविषयः अस्ति महिला नेतृत्वस्य विकासः। श्री रिजिजुः अवदत् यत् भारतं विश्वस्य तृतीयं बृहत्तमार्थव्यवस्थां भवितुं सम्यक् मार्गे अस्ति। मन्त्री उक्तवान् यत् गत 11 वर्षेषु भारतं 11 स्थानात् विश्वस्य पञ्चमी बृहत्तमार्थव्यवस्था अभवत्। श्री रिजिजुः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारते महती प्रगतिः अभवत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अपि च न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। केन्द्रीय कृषि कृषक कल्याण मंत्री शिवराज सिंह चौहान अद्य उक्तवान् यत् ट्रैक्टर वाहनानां कृषि उपकरणानां च जीएसटी मूल्यस्य ह्रासः प्रत्यक्षतया कृषकाणां कृते लाभप्रदः भवेत्। नवदिल्ल्यां कृषि यन्त्राणां उपकरणानां च प्रतिनिधीनां सभायाः अध्यक्षतां कुर्वन् श्री चौहानः अवधानं प्रदत्तवान् यत् जीएसटी इत्यस्य 12 अथवा 18% पञ्चप्रतिशतं यावत् न्यूनीकरणेन ट्रैक्टर वाहनानां मूल्यं बहु न्यूनं भविष्यति। श्री चौहानः अवदत् यत् अनेन उपक्रमेण विभिन्न ट्रैक्टर वाहनेषु 23-63 वा सहस्ररूप्यकाणि यावत् मूल्येषु ह्रासः भविष्यति। वार्ताहरान् सम्बोधयन् श्री चौहानः उक्तवान् यत् कृषकेभ्यः लाभः अस्य सितम्बर मासस्य 22 दिनाङ्कादारभ्य प्रत्यक्षतया भविष्यति।
हमारा संकल्प है किसान की आमदनी बढ़ाना और उसके लिए जरूरी है उत्पादन बढ़ाना, उत्पादन की लागत घटाना और मैकेनाइजेशन दोनों में जरूरी है। उत्पादन बढ़ाने के लिए भी मशीनें जरूरी है, ट्रैक्टर हो, हार्वेस्टर हो, थ्रेसर हो, पावर टिलर हो, छोटी मशीनें हो, ये जरूरी है और इससे लागत भी घटती है। लेकिन ये घटी हुई जीएसटी की दरों का लाभ किसानों को मिले और ये लाभ छोटा मोटा नहीं, बहुत बड़ा है।
प्रसिद्धः असमराज्यस्य गायकः सांस्कृतिक प्रतीकः च जुबीन गर्ग इत्येषः सिंगापुरनगरे स्कूबा डाइविंग दुर्घटनायाः अनन्तरं मृतः। प्रतिवेदनानुसारं सिंगापुरदेशस्य आरक्षकाः अचेतनावस्थायां समुद्रात् तं निष्कासितवन्तः, तस्मै स्थानीय चिकित्सालयं प्रति नीतवन्तः। तीव्रपरिचर्यायां स्थापनानन्तरं सः मृतः। जुबीन इत्येषः नॉर्थ ईस्ट फेस्टिवल इत्यस्मिन् भागग्रहणाय सिंगापुरदेशं गतवान् आसीत्, यत्र सः अद्य प्रदर्शनं कर्तुं नियतः आसीत्। 2000 वर्षे गैंगस्टर इति चलचित्रस्य या अली इति गीतेन जुबीन गर्ग इत्येषः बॉलीवुड मध्ये प्रसिद्धिम् अवाप्नोत्। यमनदेशस्य हूती समूहेन इज़राइल देशस्य नगराणि लक्ष्यीकृत्य हाइपरसोनिक बैलिस्टिक प्रक्षेपणस्य 3 ड्रोन प्रक्षेपणास्त्राणां च दायित्वं स्वीकृतम्। हुती सूत्रानुसारं प्रक्षेपणास्त्रेण जाफानगरस्य सैन्यस्थलं, ड्रोन्स क्षेपणास्त्रेण वीर सेवानगरं, इलात पत्तन नगरं च लक्ष्यीकृतम्। इज़राइल देशस्य रक्षाबलेन अधिकांश प्रक्षेपणास्त्राणि अवरोधितानि, परञ्च इलात नगरे ड्रोन प्रहारः अभवत् येन सम्पत्तीनां क्षतिः जाता, न कापि जनहानिः अभवत्। एशिया कप क्रिकेट प्रतिस्पर्धायां आबुधाबी नगरस्य जायेद क्रिकेट क्रीडांगणे भारतीय दलं स्वस्य अन्तिमायां ग्रुप ए इत्यस्यां स्पर्धायां ओमान देशेन सह स्पर्धिष्यति। एषा स्पर्धा रात्रौ 8 आरप्स्यते। ओमान देशः पूर्वमेव बहिर्भूतः। भारतीय दलं द्वयोः प्रतिस्पर्धयोः 4 अंकैः सह सुपर फोर इत्यस्मिन् स्थानम् अवाप्नोत्। अन्ते मुख्यवार्ताः पुनः एकवारम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य ग्रीसदेशस्य प्रधानमन्त्रिण्या क्रियाकोस मित्सोताकिस इत्यनेन सह दूरभाष माध्यमेन चर्चा कृता। भारतेन सीमापार आतंकवादं निवारणाय विश्वम् आहूतम्। केन्द्रीय कृषि कृषक कल्याण मंत्री शिवराज सिंह चौहान उक्तवान् यत् ट्रैक्टर वाहनानां जीएसटी मूल्य ह्रासेन प्रत्यक्षतया कृषकाणां लाभः भवेत्।